अथ नवमः सर्गः।
तथा विधेनंगरस प्रसंगे मुखारविन्दे मधुपः प्रियायाः संभोगवेश्म प्रविशन्तमन्तः ददर्श पारावतमेकमीशः।
तथा विध इति प्रियायाः पार्वत्याः संबंधिनी मुखारविन्दे वदनकमले मधुपः भ्रमरभूतः ईशः शिवः तथाविधे पूर्वोक्तप्रकारे अनंगरसप्रसंगे कामरसावसरे संभोगस्य वेश्म गृहं अन्तःप्रविशन्तम् एकं पारावतं कपोतं ददर्श दृष्टवान्। सर्गेस्मिन् वृत्तं उपजातिः।
सुकान्तकान्तामणितानुकारं कूजन्तमाघूर्णितरक्तनेत्रं प्रस्फारितोन्नम्रविनम्रकण्ठम् मुहुर्मुहुर्न्यञ्चितचारुपुच्छम्।
सुकान्तेति कथं भूतं पारावतम्। सुकान्तम् अतिमनोहरम् यत्कान्तामणितम् रमणीरतिकूजितम्। मणितम् रतिकूजितम् इत्यमरः तस्य अनुकारः अनुकरणम् यत्र यस्मिन् कर्मणि तद्यथा तथा कूजन्तम् शब्दायमानम् तथा आघूर्णिते रक्तनेत्रे येन तथोक्तम् तथा प्रस्फारितः विस्तारितः उन्नम्रः उच्चैः तथा विनम्रः कण्ठः यस्य तम् तथा मुहुर्मुहुः वारं वारं न्यञ्चितः संकुचितः चारुः पुच्छः पश्चाद्भागो येन तथोक्तमित्यर्थः। पुच्छः पश्चात्प्रदेशे स्यात् इति विश्वः।
विशृङ्खलम् पक्षति युग्ममीषत् दधानमानन्दगतिम् मदेन शुभ्रांशुवर्णम् जटिलाग्रपादम् इतस्ततो मण्डलकैश्चरन्तम्।
विशृङ्खलमिति पुनः कथम् भूतम्। विशृङ्खलम् विगतशृङ्खलाकम् अनेन विशेषणेन कदाचित् कस्यापि बन्धनाभावस्य द्योतनात् स्वेच्छाविहारित्वम् ध्वन्यते। शृङ्खला पुंस्कटीवस्त्रबन्धेऽपि निगडेऽपि च इति विश्वः। पक्षत्योः पक्षमूलयोः युग्मम् द्वयम्। पक्षात्तिः इति तिप्रत्ययः। तथा ईषन्मदेन हेतुना आनन्दगतिम् च दधानम्। तथा शुभ्रांशोः चन्द्रस्य वर्ण इव वर्णः यस्य तम् विधुः सुधांशुः शुभ्रांशुः इत्यमरः। तथा जटिलौ जटायुक्तौ अग्रपादौ यस्य तम् जटिलस्तु जटायुक्तः इति विश्वः। तथा मण्डलकैः मण्डलाकारगतिविशेषैः इतस्ततः चरन्तम् भ्रममाणम् तम् कपोतम् ददर्शेति सम्बन्धः। मण्डलके इति पाठे सुरतमण्डप इति व्याख्येयम्। त्रिभिः एतद्विशेषकम्।
रतिद्वितीयेन मनोभावेन ह्रदात् सुधायाः प्रविगाह्यमानात् तम् वीक्ष्य फेनस्य चयम् नवोत्थम् इवाभ्यनन्दत्क्षणमिन्दुमौलिः।
रतीति रत्या सपत्न्या द्वितीयेन रतिसहायेनेत्यर्थः मनोभवेन कर्त्रा प्रविगाह्यमानात् अवलोड्यमानात् सुधायाः ह्रदात् नवम् उत्थम् उत्पन्नम् फेनस्य चयमिव स्थितम् तम् कपोतम् वीक्ष्य इन्दुमौलिः शिवः क्षणम् अभ्यनन्दत् अस्तौषीत्। कपोतरूपे वस्तुनि धवलिमरूपधर्मेण गम्यमानेन फेनचयरूपवस्तूत्प्रेक्षालङ्कारः
तस्याकृतिम् कामपि वीक्ष्य दिव्याम् अन्तर्भवश्छद्मविहङ्गमग्निम् विचिन्तयन् संविविदे सदेवः भ्रूभङ्गभीमश्च रुषा बभूव।
तस्येति अन्तर्भवतीत्यन्तर्भवः सर्वान्तर्व्यापीत्यर्थः स देवः हरः दिव्याम् भव्याम् कामपि लोकोत्तराम् तस्य पारावतस्य आकृतिम् वीक्ष्य छद्मना कैतवेन विहङ्गम् कपोतस्वरूपधारिणम् अग्निम् विचिन्तयन् वितर्कयन् संविविदे विजज्ञे निश्चयात्मकबुद्ध्या अग्निरेव अयमिति बुबुधे इत्यर्थः। सम्मोगम् ऋच्छि इत्यादिना आत्मनेपदम् रुषा भ्रुवोः भङ्गेन भीमः भयङ्करश्च बभूव असामयिकागमनकारित्वादिति भावः।
स्वरूपमास्थाय ततो हुताशः त्रसन्वलत्कम्पकृताञ्जलिः सन् प्रवेपमानो नितराम् स्मरारिम् इदं वचो व्यक्तमथाध्युवाच।
स्वरूपमिति ततः अनन्तरम् हुताशः अग्निः त्रसन् बिभ्यत्सन् वा भ्राश इत्यादिना वैकल्पिकत्वात् न स्यन् स्वरूपम् आग्नेयम् रूपम् आस्थाय आश्रित्य अथ स्वरूपाश्रयणानन्तरम् वलन् उद्भवन् कम्पः यथा तथा कृतः बद्धः अञ्जलिः येन तथा नितराम् प्रवेपमानः कम्पमानश्च सन् स्मरारिम् शिवम् व्यक्तम् स्फुटम् इदम् वक्ष्यमाणम् वचः अध्युवाच उक्तवान् दुह्याच इत्यादिना ब्रुवः द्विकर्मकत्वम्।
असि त्वमेको जगतामधीशः स्वर्गौकसाम् त्वम् विपदो निहंसि ततः सुरेन्द्रप्रमुखाः प्रभो त्वाम् उपासते दैत्यवरैर्विधूताः।
असीति हे प्रभो त्वम् एकः जगताम् अधीशः असि त्वत्सदृशः जगताम् पालयिता न कोऽप्यन्यः अस्तीत्यर्थः। अत एव स्वर्गौकसाम् इन्द्रादीनाम् विपदः त्वम् निहंसि दूरीकरोषि। ततः कारणात् सुरेन्द्रप्रमुखाः देवाः त्वाम् उपासते यतः दैत्यवरैः विधूताः तिरस्कृताः।
त्वया प्रिया प्रेम वशं वदेन शतं व्यतीये सुरताद्रतूनाम् रहस्थितेन त्वदवीक्षणार्थः दैन्यम् परम् प्राप सुरैः सुरेन्द्रः।
त्वयेति हे प्रभो प्रियायाः पार्वत्याः प्रेम्णा हेतुना वशंवदेन वशीभूतेन प्रियवशे वदः खच् इति खच् अरुर्द्विषदित्यादिना मुम् तेन त्वया रहस्थितेन सता सुरताद्धेतोः ऋतूनां शतं व्यतीतम् इणः कर्मणि लिट् अथ च सुरेन्द्रः त्वदवीक्षणेन तवानवलोकनेन आर्तः पीडितस्सन् सुरैः सह परम् अत्यन्तम् दैन्यम् प्राप त्वद्विरहासहत्वादिति भावः
त्वदीयसेवावसरप्रतीक्षैः अभ्यर्थितशक्रमुखैः सुरैस्त्वाम् उपागतोऽन्वेष्टुमहम् विहङ्ग रूपेण विद्वन् समयोचितेन
त्वदीयेति हे विद्वन् त्वदीया त्वत्कर्मिका या सेवा तस्याः अवसरस्य प्रतीक्षा येषां तैः शक्रमुखैः इन्द्रादिभिः सुरैः अभ्यर्थितः अहम् त्वाम् अन्वेष्टुम् मृगयितुम् समयोचितेन विहङ्गरूपेण पारावतरूपेण जिह्रेति यन्नैव कुतोऽपि तिर्यः कश्चित् तिरश्च स्त्रपतेन तेन इति श्रीहर्षोक्तेरिति भावः उपागतोऽस्मि
इति प्रभो चेतसि सम्प्रधार्य तन्नोपराधम् भगवन् क्षमस्व पराभिभूता वद किम् क्षमन्ते कालातिपातम् शरणार्थिनोमि
इतीति हे प्रभो हे भगवन् तत् तस्मात् कारणात् इति चेतसि सम्प्रधार्य संविचार्य नः अस्माकम् अपराधम् क्षमस्व असमये इन्द्रप्रेरितस्य तव अपराधः कथम् सोढव्यः इति चेत् तत्र आह परेति परैः अभिभूताः पराभिभूताः अत एव शरणार्थिनः रक्षितारम् याचमानाः शरणम् गृहरक्षित्रोः इत्यमरः अमी इन्द्रादयः कालातिपातम् कालविलम्बम् किम् कथम् क्षमन्ते आर्तैः कालविलम्बो न सह्यत इति भावः प्रतीक्षते जातु न कालमार्तः इति न्यायात् वद कथयेत्यर्थः
प्रभो प्रसीदाशुसृजात्मपुत्रम् यम् प्राप्य सेनान्यमसौ सुरेन्द्रः स्वर्लोकलक्ष्मी प्रभुतामवाप्य जगत्त्रयम् पाति तव प्रसादात्
प्रभो इति हे प्रभो प्रसीद प्रसन्नो भव आत्मपुत्रम् आशु सृज यम् आत्मपुत्रम् सेनान्यम् प्राप्य असौ सुरेन्द्रः तव प्रसादात् स्वर्लोकलक्ष्म्याः प्रभुताम् अवाप्य जगत्त्रयम् पाति रक्षिष्यति वर्तमानसामीप्ये वर्तमानवद्वा इति लट्
स शङ्करस्तामिति जातवेदो विज्ञापनामर्थवतीम् निशम्य अभूत्प्रसन्नः परितोषयन्ति गीर्भिर्गिरीशारुचिराभिरीशम्
स इति सः शङ्करः इति इत्येवम्भूतम् अर्थवतीम् सार्थकाम् योग्यामिति यावत् ताम् जातवेदसः అగ్నేః విజ్ఞాపనాం ప్రార్థనాం నిశమ్య శ్రుత్వా ప్రసన్నః అభూత్. తథా హి గిరీశాః వాగ్మినః పురుషాః రుచిరాభిః గీర్భిః ఈశం స్వామినం పరితోషయంతి ప్రసాదయంతీత్యర్థః.
ప్రసన్నచేతా మదనాంతకారః సతారకారేర్జయినో భవాయ శక్రస్య సేనాధిపతేర్జయాయ వ్యచింతయచ్చేతసి భావి కించిత్.
ప్రసన్నేతి ప్రసన్నచేతాః సః మదనాంతకారః హరః జయినః జయశీలస్య తథా జయాయ శత్రుపరాజయార్థం శక్రస్య సేనాధిపతేః తారకారేః తారకశత్రోః అపత్యస్యేత్యర్థః. భవాయ జన్మనే తత్కర్తుమిత్యర్థః. భావి భవిష్యత్ కించిత్ చేతసి వ్యచింతయత్ విచచారేత్యర్థః.
యుగాంతకాలాగ్నిమివావిషహ్యం పరిచ్యుతం మన్మథరంగభంగాత్ రతాంతరేతః స హిరణ్యరేతసి అథోర్ధ్వరేతాస్తదమోఘమాధాత్.
యుగాంతేతి అథ సః శివః యుగాంతకాలస్య అగ్నిమివ అవిషహ్యం సోఢుమశక్యం మన్మథరంగస్య కామక్రీడాయాః భంగాద్ధేతోః పరిచ్యుతం భ్రష్టం తథా అమోఘం సఫలం తత్ప్రసిద్ధం రతాంతస్య సురతాంతస్య రేతః వీర్యం హిరణ్యరేతసి వన్నౌ ఆధాత్ నిదధే. యతః ఊర్ధ్వరేతాః ఊర్ధ్వగామి వీర్య ఇత్యర్థః.
అథోష్ణబాష్పానిలదూషితాంతం విశుద్ధమాదర్శమివాత్మదేహం బభారభూమ్నా సహసా పురారి రేతః పరిక్షేప కువర్ణమగ్నిః.
అథేతి అథ అనంతరం అగ్నిః విశుద్ధం ఆత్మదేహం ఉష్ణబాష్పానిలేన ముఖనిశ్వాసేన దూషితం మ్లానీకృతం అంతః మధ్యం యస్య తం ఆదర్శమివ సహసా భూమ్నా బాహుల్యేన పురారేః శివసంబంధినః రేతసః పరిక్షేపః తేన కువర్ణం కుత్సితవర్ణం బభార ధృతవాన్.